Ajay Srinivas.
Namasarvebhyah. Subhashitam Pashyamaha. Akashat patitam toyam yathagacchati sagaram sarvadeva namaskaram namaskarah keshavam prati gacchati. Prayah na drishyate ekam nimisham. सुभाषितं सर्वे श्रुतवन्तः एतत् सुभाषितम् आकाशात् पतितं तोयं यथा गच्छति सागरं सर्वदेव नमस्कारः केशवं प्रति गच्छति. अनेकसुभाषितम् अपि पश्यामः. अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः उत्तमा मानमिच्छन्ति मानो हि महतां धनम्. अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः उत्तमा मानमिच्छन्ति मानो हि महतां धनम्. अधमाः तु धनम् एव इच्छन्ति. अधमा इत्युक्ते अनुत्तमाः जनाः. मध्यमाः धनम् अपि मानम् इच्छन्ति, परन्तु उत्तमजनाः मानमेव इच्छन्ति इति तात्पर्यः अस्ति अत्र सुभाषितस्य. गृहपाठमपि पश्यामः शीघ्रम्.
गृहपाठं पश्यामः. सो बिफोर् ऐ स्टार्ट् just a brief discussion on the sound. So Usha Bhagini, I know you have been trying to fix your problem. Hopefully it has been sorted out. And Anita Bhagini also, I think last week you had some problems. See, I want all of us to participate, okay? So hopefully the troubles are fixed. And again, best is to go into a quiet room and not use a Bluetooth headset. And the other thing is, if you can switch off the fan, I know it may be getting hot, but sometimes the fan running can create some problems, or any other electrical equipment in the room. So that might cause some distortion. And hopefully we can get through this. Okay. Anita Bhagini Astiva.
Aam Mahodaya. Namaste Mahodaya.
Namaste. Uttamam Asti. Good. This is fine, Bhagini.
Yeah.
And also... how do you say your name, Bhagini? Anita or something else?
Anita itself, Mahodaya. Anita.
In your emails you have been putting Anita. I assumed it was a typo, but never know.
Oh, okay.
And it has happened multiple weeks. I wanted to ask you last week, but chintam.
Okay, when I was like typing in like Sanskrit, Mahodaya.
Yes, yes.
Oh, maybe. Yes. Okay. I actually like send it from my mobile. Maybe I've not observed that.
Okay.
Yeah, sorry
no
about
problem.
That.
I didn't want to mispronounce your name, Bhagini.
No, that's fine. Yeah.
Usha Bhagini, Namaskara.
Namaskara, Mahodaya. Prayatnam Karomi, Dhoni.
Okay, okay. So far, so good. Okay.
Dhanyavada.
Dhanyavada. Okay, let us begin. Anita Bhagini, Pratama...
Mahodaya.
Pratama Dvayam Shrayam Karoti.
UM. UM Bhajayata. UM Bhanjayata. Bhavantaha. Bhavantaha. Lutantu. Bhavantaha. Lutantu.
Luntantu.
Aham Tadayani Avam Aspotayava.
For number one, can you say for Uttama Purusheka Vachana?
Uttama Purusha Eka Vachana will be Aham Bhanjayani. Bhajayani, like how do I read this mode? Bhanja or Bhaja?
Okay, okay. Chinta Mastu Bhagini. We'll finish and then if there is time, we'll come back. Chinta Mastu.
Okay.
Aparna Bhagini Agre Karotu.
Namo Namaha. Saha Kuttayatam. Yuyam. Prasphotayat. Bhim prakshipatu. Yuyam vimardayat. Or I can say sainikaha vimardayat.
Panchamam kim asti? The fifth
kuttayam,
one.
Kuttayam saha kuttayatam.
Saha
because
va?
It is ending in tam. So Bhavan or Saha, like we have Vandatam, like that Kuttayatam, is it correct? Oh, it could be actually a Yuvam Kuttayatam, sorry.
Mm-hmm.
Yuvam, it is a Madhyam Purusha Dvivachanam, Kshamyatam, Yuvam Kuttayatam.
Atra Pashyatu, Kuttayatam.
Kuttayatam, Kshamyatam.
Sixth one
is? Yuyam prasphotayat.
Yata.
Yata. Prasphotayat. Yuyam prasphotayat.
Agre?
Bhim prakshipatu. So, bhim is like a sambodhanam. Bhim prakshipatu. And then for the eighth one, it is yuyam vimardayat. Or we can say sainikaha vimardayat.
How sainikaha?
Oh, because it is okay, it's not pratham purush, it's madhyam purush. No, we can only say yuyam vimardayat.
Vimardayat bhagini.
Vimardayat.
Vimardayat means you have the halanta chinna nasti kalu.
Amode yuyam vimardayat.
Dhanyavad bhagini.
Dhanyavad mahode.
Chitra Bhagini, Namo Namaha. Fifth one, seventh one, Bhavan Prakshipatu. Is it correct?
Bhavan, yeah.
Okay.
Hey, bhagini bhavati na krutavati va you are not you have not sent in the last few
no days, because I have some other work so I have not well also that's why
okay okay hopefully you are
yeah I am attending the classes and also I am doing the homework myself in the last night even night only so I couldn't send that
If possible send it to bhagini
okay.
I just want to get a good feeling that people are
yeah I'm doing you know. I am doing all the things but in the last night when I am doing the homework that is nearly 12 o'clock so that's why I couldn't send that
okay chinta mastu bhagini बालकृष्णमहोदय अग्रे करोतु
नमस्ते महोदय वयं विदारयाम आवां विमुञ्चाव त्वं मारय त्वं चिन्ति चिन्धि
त्वं सम्यक् धन्यवादः महोदय So, that Chindi and the next one, Bhindi, they are like very advanced. I don't know why they have given it. It's the Chidda Dhatu and the Bhidda Dhatu. Okay, so this will be the Chindi and Bhindi are Madhyama Purusha Ekvachana.
Oh, that's,
yes,
I did not understand properly, but... I did wrong first then I saw that answer then I corrected it
chidd dhatu and bhidd dhatu both mean roughly the same like to cut or to crush
okay it is also lot lakara no
yes these are all lot madhyama purusha ekavachana
okay धन्यवादः
धन्यवादः भूमि भगिनी अग्रे करोतु
नमस्कारः नमस्कारः महोदय त्वं भिन्धि ते घ्नन्तु
अग्रे अपि
वयं प्रताडयाम त्वं सर्प
सम्यक् भगिनि धन्यवादः सो हियर् आल्सो भिन्दी इस् त्वं मध्यमपुरुषे एकवचनं सिमिलर् मीनिङ्ग् कट् ओर् क्रश् पौडर् सम्थिङ्ग् लैक् दट् दीस् आर् आल् लैक् वार् लैक् वर्ड्स् वर्ब्स् आल् आफ़् दीस् मोस्ट् आफ् दम्
आं महोदय ऐ find it out on the dictionary so I in my homework also I write it down at the bottom the lat lakar is chinnatsi and binatsi so just for my knowledge I dhanyavaad
dhanyavaad bagini so for chindi for the prathama purusha ekavachanam will be chinnatti and bhinatti okay so don't have to worry about that I think it is outside the scope of this level I don't know anyway agre sara
and these are mahodaya like a bhindi is ubhay padi right
yeah
okay
so this is actually the parasmai padi roopa
Yeah, this one is Parasmai Padi, but they were showing both of them, like
Atman Padi. Yeah, it is Ubhay Padi. Okay. Actually, both Bhidd and Chidd are Ubhay Padi, Dhatava.
Am, Mahadeya. Dhanyavad.
Hemangi Bhagini Astiva, Agre?
Am, Mahadeya. Namaste, Aham Asmi.
नमस्ते भगिनि
नमस्ते. अस्तु, वयं सम्मुखीकरवाम त्वं प्रहर. भवन्तः खण्डयन्तु, त्वं दण्डय. धन्यवादः.
These are all little simpler. Okay. Dhanyavada Bhagini. राजश्री भगिनी अग्रे द्वितीयं करोतु.
नमस्ते महोदय.
नमस्ते.
वदतु भ्रूतां भाषतां मोदतां मोदतां इति असमान अर्थक अर्थम्
किम् अस्ति अर्थः?
वदतु भ्रूतां भाषताम् इत्युक्ते माने स्पीक् टाक्. मोदताम् इस् एन्जाय्.
सो आर् दे आल् द सेम् पुरुषः? पुरुषः
वदतु भ्रूतां भाषताम् आल् लोट्लकार लोट्लकार प्रथमपुरुष. वदतु भ्रूतां भाषताम् मोदताम् आल्सो इस् प्रथमपुरुष.
इस् देर् अ परस्मैपदी धातु इन् देर्? Can you identify?
Modate.
No, no. Of the given of the four, is there a Parasmaipadi that you can point out?
Oh, Parasmaipadi. Okay.
See, one looks different from the other, right?
Vadatu, vadatu. Vadati.
Vadatu.
Vadati is the Parasmaipadi. Sorry.
Yeah, vadati is. किञ्चित् उच्चैः वदतु भगिनि. या सो वदतु इस् परस्मैपदी. सी द अदर्स् आर् आल् भूतां भाषतां. सो दट्स् आल् द आत्मनेपदी. धन्यवादः भगिनि. प्रश्नः अस्ति वा?
आं महोदय. बट् इट् सेस् अ समानार्थक. ऐ थाट् वि शुड् लुक् अट् द मीनिङ्ग्. ऐ डिडन्ट् सी द लकार.
Right. I was just questioning you, Bhagini.
Okay.
Yeah. Okay. What? Your answer is right. Modatam is the asamanartha. But I was just asking if you could.
Okay.
Dhanyavada, Bhagini. Jaya Bhagini Astiva?
अस्मि महोदय. नमस्कारः.
अग्रे करोतु भगिनि.
भुञ्जक्ष्व भजस्व खाद भक्ष्य. सो द वर्ड् इस् भजस्व.
किमर्थं?
Rest all the three are related to eating. And this is for bhaja. It's like kirtan.
Samyak. So can you point out the atmane and parasmai in these?
Okay. Bhajasva is the madhyam purusha. लोट्लकार भजते खादति खादति इस् द परस्मैपदी भक्ष्य भक्षय भक्षयति इस् द परस्मैपदी खादति इस् आल्सो परस्मैपदी भजस्व एण्ड् भुङ्क्ष्व दोस् आर् द आत्मनेपदीस्
सम्यक् भगिनि धन्यवादः
धन्यवादः
जस्ट् लुक् एट् द अन्तिमे किम् अस्ति दृष्ट्वा वयं जानीमः धन्यवादः भगिनि
धन्यवादः
रामेश्वरी भगिनी अस्ति वा अग्रे
आम् लभस्व आप्नुहि विन्द निन्द निन्द इज
किम् अस्ति
निन्द इज असमानार्थक पदम् निन्द मीन्स्
लभस्व आप्नुहि जनरलि यु नो वट् दे मीन् रैट्
लभस्वि लभते
लभते
आप्नोति आप्नुहि बट् ऐ डोण्ट् नो द फार्म् विन्दते
सो आप्नोति इस् सिमिलर् टु वि सा जानाति खलु जानाति
राइट
सो इट विल बी लाइक दैट जानाहि
या आई नो बट अहम् इदानीं न स्मरामि अहं लिखितवती अन्वेषणं कृत्वा
जानातु जानीहि जानातु जानीतां जानन्तु जानीहि सो सिमिलर्लि आप्नुहि सो वाट् पुरुषः पुरुषाः आर् दीस्
त्वं मध्यम पुरुष एकवचनं
परस्मैपदी अस्ति वा अत्र
लभस्व इस् आत्मनेपदी ऐ थिंक आप्नुहि विन्द निन्द परस्मैपदी
सम्यक् भगिनि धन्यवादः
धन्यवादः
सरस्वती भगिनी अग्रे करोतु
नमस्ते महोदय
नमस्ते भगिनि
जानीहि विद्धि निबोध जहि इन् दिस् जहि इस् दि डिफरेंट वन् what rest of the things means to know and then jahi means to kill to kill
jahi is a little that's also fairly advanced one so it is a hanna dhatu
hanna dhatu
hanna dhatu jahi is the madhyama purusha ekavachana tvam jahi
these are also I think mostly everything is madhyama purusha ekavachanam
yeah all of these yeah
I think all of them are parasmepadi
yeah jahi is also hanna dhatu is actually a ubhayapadi but this is parasmepadi jahi is parasmepadi samyakpadi धन्यवादः सुबोध महोदय अग्रे सुबोध महोदय अस्ति वा नमस्ते महोदय
इच्छानि काङ्क्षानि कामयै वीक्ष्यै वीक्ष्यै असमानार्थपदपदम्
सम्यक् कः पुरुषः
इच्छानि उत्तमपुरुषः काङ्क्षानि उत्तमपुरुषः एकवचन कामयै उत्तमपुरुषः द्विवचन वीक्षै
एकवचनं महोदय आत्मनेपदी एकवचन
आत्मनेपदी एकवचन कामयै वीक्षै आत्मनेपदी एकवचन
धन्यवादः उषा भगिनी
नमस्कारः महोदय वन्ददां नमतु रमतां प्रणमतु अत्र असमानार्थकपदं रमतामिति वन्ददां नमतु प्रणमतु सर्वाणि पदानि नमतु इत्यस्य पदस्य पर्यायार्थकः रमताम् इत्युक्ते एन्जाय् मोदताम्
परस्मैपदी के के सन्ति अत्र
अत्र परस्मैपदी नमतु प्रणमतु अत्र प्रथमपुरुषाः वन्दतां नमताम् अत्र द्विवचने नमतु प्रणमतु एकवचने सहि वा
वन्दतां चिन्तयतु वन्दतां रमतां
वन्दे वन्दतां
वन्दतां प्रथमपुरुष एकवचनं रिमेम्बर् आत्मनेपदी विल् बी द दे दे इन् द मध्ये
धन्यवादः
वैभवी भगिनी अस्ति वा
आं महोदय नमो नमः
नमो नमः भगिनि
एत् क्रीड लस् रमस्व सहस्व इन् दिस् असमार्थपदम् अह सहस्व the meaning of it is krida las ramasva is to play sahasva is to tolerate or to bear and in this parasmai padi is kridati lasati these two words are parasmai padi ramasva sahasva is atmane padi lot lakara madhyam purush ekavachan
उत्तमं भगिनि
धन्यवादः
यु डिड्न्ट् अलौ मी टु आस्क् यु अ क्वेश्चन् उत्तमं धन्यवादः
ऐ हेव् रिटन् डौन् द मीनिङ्ग्स्
यु हव् डन् वेरि वेल् भगिनि यु हेव् एक्स्प्लेन्ड् एव्रिथिङ्ग् इन् डीटेल् ऐ एम् वेरि प्लीस्ड् टु सी युर् वर्क् उत्तमं कीप् इट् अप् ओके साहित्या भगिनी करोति वा
Mahalaya, I got this all wrong, Mahalaya.
Yeah, I think one of your
question incorrectly. Okay. Bhikshai lokai pashyani rakshani avekshai rakshani maybe.
So rakshanam is what it is. What are the other?
Waiting. I'm just guessing.
See, they all mean roughly the same.
Yeah.
Vikshay, avekshay, pashyati, you know?
Awaiting, yeah.
No, pashyati.
Look.
Pashyati is to see.
Yeah.
So all the others mean the same. Vikshay, lokai. Can you say the Purusha, what it is? All these? They are the same.
Madhyama Purusha. Uttama Purusha. Pashyani, Rakshani are Uttama Purusha. All are Uttama Purusha. Yeah.
Vachanam? Uttama Purusha?
I think Pakshani, Rakshani or Parasmaipadi. Others are Atmanepadi.
It is Uttama Purusha Ekavachanam. Aham Vikshai, Aham Lokai, Aham Pashyani. Okay?
Yeah.
Which one did you... I tried to look. Yours came in a little small, Bhagini.
No, actually, a lot of things are wrong in this because I didn't know. I had to check the meaning. I tried to check if the form is different. Some were confusing.
So you know to look up the meaning on the dictionary, online dictionary?
Yes.
Okay. Okay, dhanyavada bhagini.
Dhanyavada.
Chitra bhagini.
Namaste, Mahoday. This one. Muchatu, jahatu, hantu, tejatu. The difference one is hantu. Muchatu, jahatu, hantu, all the words are from
all the words are
all the words is denote that Uttam Purush.
Bhagini,
Pratham Purush.
Samyak.
Pratham Purush. Lot Lakara.
Ekavachanam va Bahuvachanam?
Lot Lakara.
Bahuvachanam.
Lot Lakara. Ekvachanam. Ekvachanam.
Samyak. So, is there any Atmanepadi in this?
Atmanepadi. No, sir. Muchatu, jahatu, antu, tejatu, no, sir. There is no Atmanepadi.
Sir, ma vadatu.
Mahode. Yeah, mahode.
Sarve parasmaipadi.
Sarve parasmaipadi, lotlakara, ekvachanam.
Samyak.
Dhanyavad.
Okay, dhanyavad.
Dhanyavad.
Okay. Prashnah santiva? Asti ched agre saramaha.
महोदय, दट् थर्ड् वन् भक्षय, वाट् फार्म् इस् दट् भक्षय, थर्ड् भुङ्क्ष्व भजस्व भक्षय.
We talked, right? I mean, it is the Madhyama Purusha Ekavachana. Bakshayati, Bakshayatu, Bakshaya.
Okay.
Bakshati, Bakshayati.
Okay. Dhanyavad.
Bakshanam Karoti, like that, no? Bakshayati.
Tumadhyo, Dhanyavad.
अनिता भगिनी अत्र पठतु.
महोदय, गीतायां कृष्णेन आदर्शरूपेण उक्तानि कानिचित् वाक्यानि अत्र सङ्गृहीतानि सन्ति. एतानि उच्चैः पठत एतेषु लोट् लकाररूपाणि अधोरेखया अङ्कयत.
अर्थं जानाति खलु वाट् यु रेड्?
आं महोदय. आल् दीस् फ्रेसेस् आर् लैक् पिक्ड् अप् फ्रोम् द गीता, सो वि विल् हाव् टु लैक् पिक् द वर्ड्स् फ्रोम् हियर् अण्ड् देन् चेञ्ज् देम्. एतेषु लोट् लकाररूपाणि अधोरेखया अङ्कयतः, सो वि विल् हाव् टु लैक् गो टु दिस् दिस् प्रोस् अण्ड् देन् पिक् अप् द वर्ड्स्.
In the sentences below, you have to, adho rekhaya means like underline, whatever you think underline. Is the lot lakha. Okay. Prathamam karoti va?
Haan, mahodaya. Yogastaha kuru karmani.
Lot lakha reke masti katra.
Yogastaha kuru. Kuru is the lot lakara.
Samyak bhagini. Uttam. That reminds me. Ekanimisham. Dhanyavada bhagini.
Dhanyavada.
Samyak. Ekanimisham. That is a good reminder. Let us look at the kru dhatu. अनिता भगिनी किञ्चित् पठतु प्रथम. दिस् इस् द लट् लकार
कृदातु
इन् द परस्मैपद. लट् लकार अत्र पठतु.
करोति कुरुतः कुर्वन्ति, करोषि कुरुतः कुरुथ, करोमि कुर्वः कुर्मः.
सम्यक्, धन्यवाद. सो रिमेम्बर् दीस् आर् दिस् इस् अ लिटल् डिफ्रेण्ट् फ्रोम् द पठति पठतः. ओके, धन्यवाद भगिनि. अपर्णा भगिनी अग्रे पठतु. आत्मनेपदी.
आम् महोदय. लट् लकारः आत्मने, कुरुते कुरुवाते कुर्वते, कुरुषे कुरुवाथे कुरुद्वे, कुर्वे कुर्वहे कुर्महे.
किञ्चित् भिन्न अस्ति खलु? कुरुते कुर्वते कुर्वते, कुरुषे कुर्वाथे कुरुद्वे, कुर्वहे कुर्महे. धन्यवाद भगिनि.
धन्यवाद महोदय.
इदानीं लोट् लकार पश्यामः. भूमि भगिनि अत्र पठतु परस्मैपदी धातु.
करोतु, कुरुतात्, कुरुताम्, कुर्वन्तु. कुरु, कुरुतात्, कुरुतम्, कुरुत, करवाणि, करवाव, करवाम.
सम्यक्. सो हियर् वि केन् इग्नोर् दिस्. ओके, दिस् वि आर् सिमिलर्. So we'll be using the karoti and kuru. So this is for, you know, higher level. By knowing the context, you will be able to figure out, but we don't want to go to that level yet. So karotu, kurutam, kuruvantu, kuru, kurutam, kuruta, karavani, karavava, karamava. So like this, if you look at some of the lakaras, it'll be like this. Multiple may be given, so we'll take the simplest, easiest one and go with that. Okay, dhanyavad bhagini. Hemangi bhagini, agre patatu.
Kru dhatu, lota lakarah, atmane padhi rupam, rupani, kurutam, kurvatam, kurvatam. कुरुष्व, कुर्वाथाम, कुरुध्वम्, करवै, करवावहै, करवामहै.
So look at the difference between, so this is the lut, okay, this is the lut here, and this is the lot. See, that's very usually what we have seen is vande and vandai, right? The lot will be vandai, but here it is kurve and karavai. It is very different. So we have to keep this in mind. This is a special case. Like, so here we have seen, right, like you just varte becomes vartai and all that. So that will not hold for the kru dhatu. So just pointing out the subtle difference. Okay, and here forget the kurutat. Just do the karotu, kurutam, kuruvantu, and kuru. This kuru we have seen. So let's go back to the Balakrishna Mahodaya, agre dvitiyam patatu.
Amage. निमित्तमात्रं भव सव्यसाचिन्.
लोट् लकार रूपं कुत्र अस्ति?
भव.
सम्यक्. विल् डु वन् आर् टु मोर्. धन्यवादः महोदय. जया भगिनी अग्रे करोतु.
क्षम्यताम्. निस्त्रैगुण्यो भवार्जुन. निस्त्रैगुण्यो भवार्जुन.
ऊहं करोति वा लोट् कुत्र अस्ति इति? सन्धि अस्ति तत्र
निस्त्रैगुणः
सो भव अर्जुन ओके सो इट बिकम्स भव भव
दैट इज अ सवर्ण दीर्घ सन्धि राइट
आम भगिनि ओ उत्तमम यस
ओके भव अर्जुन निस्त्रैगुण्यो निस्त्रैगुण्य
भव अर्जुन भव
भव अर्जुन ओके
धन्यवाद भगिनि राजश्री भगिनी अग्रिमं करोतु
बीजं मां सर्वभूतानां सिद्धि सिद्धि लोट बिकॉज़ वी जस्ट सॉ इट आई थिंक द प्रीवियस वन
एग्जैक्टली वी डिड इट इन द एक्सरसाइज सम्यक
धन्यवाद
धन्यवाद अग्रे कुरु अस्ति रामेश्वरी भगिनी sixth one can you do
madhya ji maam namaskuru namaskuru namaskaroti namaskuru
samyak dhanyawad
dhanyawad
okay so these are all like that do this at home just some more exercise and if it's a sandhi you can just try to break it up okay no trick questions here somewhere it will be there I think lot of gurus are there anyway grihe prayatnam karotu
mahoday ekam prashnam asti for the eighth one tasmat utthishtha kaunteya would it be utthishtatu but it is not written like utthishtatu
उत्तिष्ठ इस कः पुरुषः चिन्तयतु
आई वाज कन्फ्यूज्ड वेदर इट इज मध्यम पुरुष और प्रथम पुरुष बिकॉज़ इट फील्स ऑलमोस्ट लाइक अ संबोधनम सो कुड बी प्रथम पुरुष
मध्यम पुरुष
उत्तिष्ठतु
सी उत्तिष्ठतु इज व्हाट व्हाट पुरुष
इट्स लाइक प्रथम पुरुष like bhavan utishtatu so it is addressed to okay because I thought it is addressed to kaunteya so that's why I thought it was pratham purusha
yeah it could be tvam see we are taking sentences out of context so it'll be a little difficult but similarly gachha is there ओके सो गृहे कुर्वन्तु सर्वे प्रश्नाः सन्ति चेत् अग्रे कक्षायां पश्यामः ओके सो ऐ थिङ्क् इन् वन् आफ़् द अर्लियर् क्लासेस् वि डिड् अ लिटल् बिट् आफ़् सप्तमी विभक्ति सो होप्फुलि इट् इस् क्लियर् There are a lot of exercises that you can do and since we have covered in the first level maybe we'll do quickly for like or try this at home atra सुबोध महोदय अत्र पठतु
आवरणे विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपेण रिक्तानि पूरयत् रिक्तस्थानानि पूरयत ब्रह्मसरोवरः कुरुक्षेत्रं कुरुक्षेत्रे अस्ति
सम्यक्
धन्यवादः
अग्रे अपि करोतु
नर्तकाः मञ्चः मञ्चे नृत्यन्ति धन्यवादः
सो दिस् इस् जस्ट् टु पुट् द वर्ड्स् इन् पेरेन्थिसिस् इन् द सप्तमी विभक्ति उषा भगिनी अग्रिमद्वयं करोतु.
आम् आं महोदय. गङ्गोत्री हिमगिर्याम् अस्ति. नीतिकथाः पुराणेषु सन्ति.
क्षम्यतां महोदय, दिर्शिसे हिमा गिर्याम्
पुनः पुनः प्रयत्नं प्रयत्नं करो. गङ्गोत्री गिरिः पुल्लिङ्गशब्दः, हिमगिरौ अस्ति. गङ्गोत्री हिमगिरौ अस्ति. नीतिकथाः पुराणेषु सन्ति. धन्यवादः भगिनि.
धन्यवादः भगिनि.
महोदय महोदय, इस् इट् इट् सिमिलर् टु हरिशब्द हिमगिरिः? सो इट् विल् मीन् हिमगिरेः हिमगिरौ सप्तमी
हिमगिरौ. यु केन् थिङ्क् आफ् बोत् एस् इवन् स्त्रीलिङ्गे गिरौ, यु केन् थिङ्क् यु केन् रिमेम्बर् फार् से ईस् आफ् रिमेम्बरेन्स् ऐ एम् सेयिङ्ग् ओके. आम् गिर्याम् आल् ऐ मीन् भूम्याम् आल्सो यु केन् से और् भूमो ओके. ओन्लि इन् स्त्रीलिङ्गं पश्यामः अत्र अस्ति वा. सि मतिः विल् बि मत्याम् और् मतौ, बट् मुनिः विल् बि मुनौ. सो यु केन् रिमेम्बर् इट् एस् औ औ. Oh, it's up to you. If you want to use Matyam also, it is fine. So, Avagatam?
Haan, Mohore.
Okay, I think it's more of the same here. So we can come back to it later.
स्क्रीन् सम्यक् न दृश्यते महोदय.
ओ न दृश्यते?
न, बहु लघु दृश्यते. इन् अ स्माल् स्क्वेर् इट् इस् शोयिङ्ग् द स्क्रीन्.
ऐ केन् सी,
ऐ एम् एबल् टु सी प्रापर्लि.
दृश्यते महोदय.
Maybe you can log out and log back in, Bhagini.
Okay, I will try to log in again.
Yeah, because I have a second screen. It seems to be fine.
Okay, asu.
Okay. Okay, we'll let's do this. Kada. Again, this is something we have seen, but we'll have a quick brush up. Sahitya Bhagini, can you read Balaha and Himangi Bhagini, can you read the Mata lines?
Astumodaya.
Amba, Krishnaha kada uttishtati?
Vatsa, Krishnaha ushakkali uttishtati.
Saha, kada snati?
Prataha eva snati.
Amba, कृष्णः कदा धेनुः चरयति
वत्स प्रातराशानन्तरं धेनुः चारयति
एकनिमिषं हेमाङ्गी भगिनी धेनुः किञ्चित् वदति वा किम् अस्ति
आं धेनुः उकारान्त स्त्रीलिङ्गी शब्दः अस्ति धेनुः द्वितीया बहुवचनं धेनुः
सम्यक् उत्तमं भगिनि धन्यवादः
धन्यवादः
ओके नेक्स्ट् केन् रामेश्वरी भगिनि can you read the next and Balakrishna Mahodaya
sah kada bhungte
sah dhenu charananantaram bhungte
krishna kada vishramyati
सः अपराह्णे वने एव विश्राम्यति
अम्ब सः कदा गृहम् आगच्छति
सायम् आगच्छति
अम्ब अहं कृष्णस्य गृहं गच्छामि
अद्य मास्तु श्वः गच्छ
अम्ब कदा श्वः भविष्यति
इदानीं निद्रां कुरु ततः जागृहि जागरणानन्तरं श्वः भविष्यति
इदानीम् एव जागर्मि इदानीम् एव श्वः भवतु
वत्स इदानीम् इदानीमेव अद्य अद्य एव ह्यः ह्यः एव श्वः श्वः एव
तर्हि इदानीं शीघ्रं निद्रां करोमि
सम्यक् धन्यवादः सर्वेभ्यः
धन्यवादः
सो जस्ट् टु गेट् अ फील् फार् कदा एण्ड् हौ यु आन्सर् नथिङ्ग् न्यू हियर् भगिनी जागृही किञ्चित् वदति वा किम् अस्ति
जागृही लैक् जानाति आप्नोति त्वं जागृही
सम्यक्
मध्यम पुरुष एकवचन
उत्तमं भगिनि धन्यवाद ओके सो हियर आल्सो यू कैन डू दिस एक्सरसाइज इट इज जस्ट यू नो द आंसर इज गिवन यू हैव टू आस्क अ क्वेश्चन यूजिंग कदा
एक प्रश्न महोदय जागृहि इत्युक्ते वेक अप बट नॉट नोइंग
या या जागरणम् like waking up putra asti awake yeah
mahodaya ekah prashnah asti pratarashanantaram vite kim
ब्रेक्फास्ट्
ओके थेङ्क्स्
प्रातराश अनन्तरं जस्ट् लैक् हियर् जागरणान्तरम् अन्तरम् ओके अग्रे सरामः
किञ्चित् सङ्ख्यावाचनं कुर्मः शतं पर्यन्तम् अस्ति इति मन्ये वैभवी भगिनी दशपर्यन्तं पठतु
आं महोदय एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश
साहित्य भगिनी एकादशतः विंशतिपर्यन्तम्
एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशति
चित्रा भगिनी एकविंशतिः
नमस्ते भगिनि एकविंशति विंशति त्रयोविंशति
चतुर्विसर्ग अस्ति विसर्ग अस्ति एकविंशति
एकविंशतिः त्वं द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत्
त्रिंशत् धन्यवादः
धन्यवादः भगिनी
अनिता भगिनी एकत्रिंशत् आरभ्य करोतु
एकत्रिंशत् द्वात्रिंशत् त्रयत्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत्
धन्यवादः भगिनी अपर्णा भगिनी एकचत्वारिंशत्
एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत्
पञ्चाशत् धन्यवादः बालकृष्णमहोदय अग्रिमम् एकपञ्चाशत्
एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः
धन्यवादः भगिनि धन्यवादः महोदय भूमि भगिनी अग्रिमम् एकषष्टिः
एकषष्टिः
द्विषष्टिः त्रिषष्टिः चतुःषष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः
सप्ततिः धन्यवादः भगिनि. हेमाङ्गी भगिनी अग्रिमम्.
एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट्सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः.
धन्यवादः जया भगिनी. अग्रिम एकाशीतिः.
आं भगिनि नमस्कारः. एकाशीतिः द्वयशीतिः त्रयशीतिः चतुरशीतिः पञ्चाशीतिः षड्शीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः. धन्यवादः.
धन्यवादः भगिनि. राजश्री भगिनी समापयतु.
एकनवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतम्.
शतं. धन्यवादः भगिनि. किञ्चित् पुनस्मरणं करणीयम् एतत् सर्वं मध्ये मध्ये. सो कीप् लुकिङ्ग् एट् दिस् एण्ड् जस्ट् लुक् एट् इट् एण्ड् रीड् इट् एण्ड् जस्ट् ट्रै टु so that you will kind of get used to it. So it's a good idea to just look, read it from the time.
Bhagini, for this 82, how do we pronounce that, Bhagini? 82?
Dvashitihi. Dvashitihi. Dvashitihi.
Dvashitihi.
So I think they, instead of doing like this, they have written the half, they have written in a different way. Dvashiti.
Dhanyavada Bhagini.
Atra abhyasam api asti, parishelanam api karotu atra. एकां कथामपि पश्यामः इति मन्ये. लघुकथा अस्ति आत्मनेपदीनाम् उपयोगं कृतमस्ति अत्र. किञ्चित् पठामः अत्र. रामेश्वरी भगिनी पठतु वाक्य निर्द
मया स्क्रीन् न दृश्यते भगिनि.
अहं
अन्ये जनाः द्रष्टुं शक्नोति
वा?
निर्धनः सुमन्तकः. सुमन्तकनामा कश्चन निर्धनः अस्ति. एकदा सः कुतश्चित् भूरि धनं लभते. तेन सह संतुष्टः भवति. तथापि सः इतोपि अधिकं धनं कामयते. कथमपि दैवात् सः तदपि प्राप्नोति. तथापि सः न मोदते. तस्य आशा वर्धते.
विवृणतु किम् अवगतम्.
कश्चन निर्धनः अस्ति, कृपणः अस्ति, दरिद्रः अस्ति. तस्य नाम सुमन्तकः. एकदा सः कुतश्चित् भूरि धनं लभते. एकदा सः प्रभूतं धनं लब्धवान् तेन सह सन्तुष्टः भवति सः धनं लब्धवान् इत्युक्ते सः मोदते तथापि सः इतोपि अधिकं धनं कामयते सो इट् इस् कान्ट्राडिक्टरि नौ दे आर् सेङ्ग् सः इतोपि अधिकं मोर् देन् दिस् धनं धनस्य इच्छां करोति सः इतोपि अधिकं धनस्य इच्छां करोति कथमपि दैवात् सः तदपि प्राप्नोति तथापि सः न मोदते कथमपि
सः प्राप्नोति ऐ मीन् एवम् इतोपि अधिकम् इति कामयते प्राप्नोति अपि
कथमपि मीन्स् एनि हौ
हि गेट्स् मोर् तथापि
even then by like his good fortune if he gets still he is not happy
daivat sah daiva vashat or kimapi daivat ityukte sa prapnopti sa na santushta evam satya asha vardate itopi adhikam
So first he is happy, then he is not happy. It's like that.
In the beginning he is happy, but itopi adhikam itoti adhikam iti kama iti. He wants more. Then he wants to begin. Saraswati Bhagini?
Bhagini, eka prashna asti. भूरि धनं लभति इत्युक्ते किम्
अधिकधनं भूरि
मोर् अबण्डण्ट्
अबण्डण्ट् अधिकं भूरि धनम् अ लाट्
सः पठानि वा
पठतु भगिनि सः आरभ्य कुत्र
सः चिन्तयति यदि इतोपि अधिकं धनं लभे तर्हि एव अहं शोभे इति सो ही इस् थिङ्किङ्ग् दट् ऐ विल् बि हेपी ओन्ली वेन् ऐ गेट् मोर् मनी
इतोपि अधिकम् इवन्
इवन् मोर् मोर् देन् वाट् ऐ हेव् आर् इतोपि अधिकम् एवमेव चिन्तयन् सः रात्रौ शेते सो इ वास् थिङ्किङ्ग् लै थाट् लैक् दिस् अण्ड् देन् इ स्लेप्ट् परन्तु चिन्ताग्रस्त सः बहुकालानन्तरं निद्रां लभते बट् सिन्स् हि वास् थिङ्किङ्ग् लैक् दिस् आफ्टर् अ लाङ्ग् टैम् देन् ओन्ली इ कुड् स्लीप् इ गाट् स्लीप् लभते इ गाट् स्लीप् ओन्ली आफ्टर् अ लाङ्ग् टैम्
धन्यवादः अवगतं खलु अधिकं कामयते निद्रां करोति चिन्तयन् चिन्तयन् निद्रां करोति तत् धन्यवादः सुबोध् महोदय अग्रिमं पठतु
निद्रायां स्थितः सः एकं स्वप्नम् ईक्षते वैल् इन् स्लीप् हि सीस् ए ड्रीम् हि गेट्स् ए ड्रीम् देवाः स्वप्ने प्रत्यक्षाः भूत्वा भाषन्ते हे समन्तक एवम् आचरितं कुतो न लज्जसे यदि एवमेव कामयसे तर्हि त्वं दुराशाग्रस्तः अचिरं म्रियसे So in his dream, guards come in, and then they speak to him, saying, "Evam acharitum." Then acharitu means like.
Why are you behaving? Acharam. That's the acharan.
Lajjase means you're shying, right? Kutona lajjase.
You are not shy to.
Why are you doing
this?
Yadi eva meva kamaise, if you look forward or like look for these things, then you will become a durashagrasta, that bad bad durasha intellect,
greedy.
Achiram mriyase. Mriyase, I'm not sure what is mriyase.
Mriyase ityukte maranam. Mriyase.
So you will Atmani. Be greedy and die with greed. That's what he says.
Bhagini, achiram ityukte kim?
Achiram.
You will die before your time. Right? Without before your time, you will die. Like you are very greedy. You want more. That's
okay. Dhanyavad.
Chiram means forever, right? Chiram means before your time.
Bhagini, what is the meaning of kuto na lajjase? What is the meaning of kuto?
Kutaha. There is a visarg. Kutaha na lajjase. Why you are not ashamed?
Okay. Because here I thought it was kuto written over there.
Yeah, kutaha na.
Okay. Dhanyavad bhagini.
Ataha durasham mam kuru ma kuru. So therefore don't get greedy.
Dhanyavad mahode. वैभवी भगिनि समापयतु.
आं महोदय. अतः दुराशां मा कुरु, अल्पेन तृप्तः भव. सो यू डोंट बी ग्रीडी एंड वॉट एवर यू हैव लिटिल बिट यू बी हैप्पी विथ इट. तेन त्वं जीवनस्य सर्वेषु क्षेत्रेषु एधसे. सो with this use edhase, I didn't get meaning. So in all the fields you will be something.
Jivanasya sarveshu tena alpena traptaha bahat. So you will achieve. That is the thing. Edhase
you will achieve. So you will be able to achieve everything in all fields with this much of
you will achieve more.
Sukham cha labhase. So with whatever you have, you will get sukham also. Anyatha asamaye nashyasi iti. If not, before your time, nasham bhavati. Tathaha सुमन्तकः निद्रातः जागृतः अभवत्. सो विद् दिस् ड्रीम् ही वोक् अप् फ्रोम् हिस् स्लीप्. स्वस्वभावस्य कृते तस्य लज्जा अजायत्. सो देन् ही बिकेम् अशेम्ड् आफ़् हिम्सेल्फ् बिकास् ही वास् बिकमिङ्ग् ग्रीडी.
निद्रातः जागरितः अभवत्. सो स्वभावस्य कृते तस्य लज्जा अजायत. ओके, अराइज़स्, ही इज़ अशेम. ओके, दैट्स ऑल. इट्स अ लघुकथा. सो दे हैव यूज्ड अ लॉट ऑफ लोट लकार. सो आई थिंक इट्स क्लियर. एंड इट्स लाइक डोंट बी ग्रीडी. मे बी दैट्स द मॉरल ऑफ द स्टोरी. So whatever you have, you want more, obviously. So, सो धन्यवादः भगिनि.
धन्यवादः.
I think we can end. We have come to a logical stop. We'll prarthamam uktva samapayama. Saitya bhagini, prarthana vadatu.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः.